Great. Geeta Jayanti. So this is the day when Krishna told Arjuna the science of Bhagavad Gita. So this day is very special for us, and that's why we recited the entire Bhagavad Gita today. And now we'll perform the Agnihotra Yajna, and Arunaksha will perform the Yajna. And also another very important business today is to distribute Bhagavad Gita. So will everybody make an effort to distribute Bhagavad Gita today? Okay. So everyone make it a point. Either in the temple when people are coming, distribute Gita to them. आज गीता पाठ हुआ है, अब अग्निहोत्र योग्य होगा, इसके पश्चात गीता का वितरण यज्ञ शुरू होने चाहिए। भगवत गीता हम पढ़ते हैं, दूसरे को भी पढ़ाना चाहिए, सुनाना चाहिए। तो इसलिए कौन कौन गीता पाठ, गीता दान यज्ञ करेंगे? बस एक दो तीन चार। Who will be involved in distributing Bhagavad Gita today? Okay. This time, still there are so few. I think every hand should go up. Everybody, Gita, distribution, very good. Thank you. Hare Krishna. Hare Krishna. So Arunashri, you can perform the yajna. So we'll chant about Brahma Samhita together. ईश्वरः परमः कृष्णः सच्चिदानन्द विग्रहः अनादिरादिर्गोविन्दः सर्वकारणकारणम् चिन्तामणि प्रकटसन्मसुकल्पवृक्षः लक्षावृतेषु शुरभिरभिपालयन्तम् लक्ष्मी सहस्र सत संभ्रम सेव्यमानम् गोविंदमादि पुरुषम् कमहं भजामि दीनुं करंतम् अरविंद दलाय दक्षम् बरहावतं समसितं बुधसुंदरांगं कंदर्पकोटि कमनीय विशेष शोभम् गोविंदमादि पुरुषम् तमहं भजामि दीनानयनरत आलोकचंद्रकलसद्मनमाल्यवंशी रत्नांगदं प्रणयकेदिकलाविलाशम् श्यामं त्रिमंगललितं नियतप्रकाशम् गोविंदमादि पुरुषम् तमहं भजामि अंगानिजस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति वलयन्ति चिरञ्जगन्ति आनन्दचिन्मय सदुज्जल विग्रहस्य गोविन्दमादि पुरुषम् तमहं भजामि Advaitamachyutamanadimanantarupam Adhyam Purana Purusham Navajovanancha Vedeshu Durlabha Madurlabha Matmohatto Govindamadi Purusham Tamaham Bhajami Panthastu Koti Shatavattara Sampragamyo Vayo Rathati Manaso Muni Pungavana Sopasti Jat Prapadatim Na Vichinta Tatye Govindamadi Purusham Tamaham Bhajami Ekopasola Chaitum Jagadanda Koti Jachakti Rakti Jagadanda Chaya Jadanta Andantarastha Paramanu Chayantarastham Govindamadi Purusham Tamaham Bhajami Jad Bhavo Bhavito Dhiyo Manujakta Thaiva Samprapya Rupa Mahima Sanajana Bhusha Suktair Jameva Nivama Prathitaistu Vanti Govindamadi Purusham Tamaham Bhajami Ananda Chinmaya Rasa Prativavitavi Tavir Jaeva Nijarupa Taya Kalahi Goloko Eva Nivasatta Khilatma Bhuto Govindamadi Purusham Tamaham Bhajami Premanjana Shurita Bhakti Vilochanena Santas Tadaiva Hidayeshu Vilokayanti Jam Shyama Sundaram Achinta Gunaswarupam Govindamadi Purusham Tamaham Bhajami Ramadi Murti Shukalani Amena Tishtan Nana Vataram Akarot Bhuvaneshu Kintu Krishna Swayam Samabhavat Paramapumanjo Govindamadi Purusham Tamaham Bhajami Jasya Prabha Prabhavato Jagadanda Koti Koti Shashesha Vasudhadi Vibhuti Vinnam Tad Brahma Nishkalam Anantam Ashesha Bhutam Govindamadi Purusham Tamaham Bhajami Maya Hijakta Jagadanda Satani Sute Traigunna Tat Vishaya Veda Vitaya Mana Satya Valamba Parasatya Vishuddha Satvam Govindamadi Purusham Tamaham Bhajami Ananda Chinmaya Ratatma Dayamanosu Japraninam Pratipalam Smaratamupetya Lilaitena Bhuvanani Jayatta Jatram Govindamadi Purusham Tamaham Bhajami Golokanam Nijadham Nitalecha Tatya Mahesha Haridham Suteshu Teshu Shete Prabhava Nishaya Vihitashtra Jena Tam Bhajami Shrishti Sthiti Pralaya Sadhana Shukti Reka Chaye Vajatya Bhuvanani Vivarti Kurda Ichhanurupam Apichashka Chachashka Tesha Govindamadi Purusham Tamaham Bhajami Shiram Yatada Divikara Vishesha Sanjayate Nahitata Prithagasti Heto Jastam Bhutama Pitatasam Upaiti Karcha Govindamadi Purusham Bhajami Deepar Chireva Hidatantaram Abhushetya दीपायते दिद्धितहेतु समान धर्मा जस्ता दृगेव हि च विष्णुतया भाति गोविन्दमादि पुरुषं तमहं भजामि जाकारनर्नव जले भजति स्म योग निद्रामनन्त जगदण्ड सरोमकूप आधार शक्तिमवलम्ब परां स्वमूर्ति गोविन्दमादि पुरुषं तमहं भजामि जस्यैकनिश्चितकालमतावलम्ब जीवन्ति लोम विलजा जगदण्डनाथा निष्ठाञ्जय्य कश्च कला विशेषो गोविन्दमादिपुरुषं तमहं भजामि भाष्वाञ्जथात्म सकलेषु निजेषु तेज स्वीयं कियत्र कदयस्तपि तद्वदत्र ब्रह्मा जयेश जगदण्ड विधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि जत्पादपल्लव युगं विनिधाय कुम्भ दन्दे प्रणाम समये सगणाधिराज विघ्नान् विहन्तु मलमस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि अग्निर्महीगगनमम्बुमरुद्दिशश्च कालस्तथात्ममनसीति जगत्त्रयानि जस्माद्भवन्ति विभवन्ति विशन्ति जञ्च गोविन्दमादिपुरुषं भजामि जच्चक्षुरेश सविता सकलग्रहाणां राजा समस्त सुरमूर्तिरशेष तेजा जस्याग्गया भ्रमति संवृतो कालो शत्रो गोविन्दमादिपुरुषं तमहं भजामि धर्मोच पापनिचयस्तुतयस्तपंसि ब्रह्मादिकीटपटगावधयश्च जीवा जन्तक्रमात्र प्रभव प्रकट प्रभावा गोविन्दमादिपुरुषं तमहं भजामि जस्तिन्द्र गोपमथविन्द्र महस्य कर्म बन्धानुरूप फलभाजन पातनोति कर्माणि निर्दहति किन्तु च भक्तिभाजान् गोविन्दमादिपुरुषं तमहं भजामि क्रोधब्जं क्रोधकाम सहज प्रणयादिभीति वात्सल्यमोह गुरुगौरवशिष्यो भावै सञ्चिन्त तस्य सदृशिं तनुमापुरेते गोविन्दमादिपुरुषं तमहं भजामि श्रियकान्ता कान्त परमपुरुष कल्पतरु कथा गानाट्यं गमनमपि वंशी प्रिय सखी चिदानन्दं ज्योति परमपि तदसादम् अपि च सजद्राक्षिराभिशवति सुरभिभ्य सुमः निमेषार्धाको वा व्रजति न हि यत्रापि समया भजे श्वेतदीपा तमहमिह बोलकामिति जा विदन्तस्ते सन्त क्षितिविरलचरा कतिपय श्री ब्रह्म संहिता की ईश्वर परम कृष्ण सच्चिदानंद विग्रह अनादि आदि गोविंदा